अथ पञ्चमोऽध्याय सूत उवाच अत तम् सुखमासीन उपासीनम् बृहच्छ्रवाः देवर्षि प्राय विप्रर्षिम् वीणापाणिः स्मयन्निव नारद उवाच पाराशर्यमहाभाग भवतः कच्चिदात्मना परिचुष्यति शारीर आत्मा मानस एव वा जिज्ञासितम् सुसम्पन्नम् अपि ते महदद्भुतम् कृतवान् भारतम् यस्त्वम् सर्वार्थपरिवृङ्गितम् जिज्ञासितम् अधीतम् च यत्तद्ब्रह्म सनातनम् अथापि शोचस्यात्मानम् अकृतार्थ इव प्रभो व्यास उवाच अस्त्येव मे सर्वमिदम् त्वयोक्तम् तथापि नात्मा परितुष्यते मे तन्मूलमव्यक्तमगाधबोधम् पृच्छामहे त्वात्मभवात्मभूतम् स वै भवान् वेद समस्तगुह्यमुपासितो यत्पुरुषः पुराणः परावरेषो मनसैव विश्वम् सृजत्यवत्यत्तिगुणैरसङ्गः त्वम् पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षी परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलम् विचक्ष्व श्रीनारद उवाच भवतानुदितप्रायम् यशो भगवतोमलम् येनैवासो न तुष्येत तन्मे मन्ये तद्दर्शनमखिलम् यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः न तथा वासुदेवस्य महिमा अनुवर्णित न यद्वतश्चित्रपदम् हरेर्यशो जगत्पवित्रम् प्रगणीतकर्रिचित् तद्वायसम् तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्तु शिक्षयाः तद्वाग्विसर्गो जनताग विप्लवो यस्मिन् प्रतिश्लोकमवध्यवत्यपि नामान्यनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः निष्कर्ममप्यच्युतभाववर्जितम् न शोभते ज्ञानमलम् निरञ्जनम् कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितम् कर्म तद यदप्यकारणम् अहो महाभाग भवानमोघदृक्शुचिश्रवा सत्यरतो धृतव्रतः उरुक्रमस्याखिल बन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग्दृशस्तत्कृतरूपनामभिः न कुत्रचित् क्वापि च दुःस्थितामतिर्लभेत वातातनौरिवास्पदम् जुगुप्सितम् धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणम् जनः विचक्षणोऽस्यार्हतिवेदितुम् विभो अनन्तपारस्य निवृत्ततः सुखम् प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान् दर्शय चेष्टितम् विभोः त्यक्त्वा स्वधर्मम् चरणाम्बुजम् हरेर्भजन्नपक्वोत पतेत्ततो यदि यत्र क्व वा भद्रमभूदमुष्यत् किम् कोऽर्थ आप्तो भजताम् स्वधर्मतः तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यद यल्लभ्यते दुःखवदन्यतः सुखम् कालेन सर्वत्र गभीररङ्घस न वै जनो जातो कथाञ्चिनाव्रजेत् मुकुन्द सेव्यन्यदवङ्गसंसृतिम् स्मरन् मुकुन्दाङ्ग्रिपगूहनम् पुनर्विहातुमिच्छेन्नरसग्रहो यतः इदम् हि विश्वम् भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः तद्धि स्वयम् वेद भवांस्तथापि वै प्रादेशमात्रम् भवतः प्रदर्शितम् त्वमात्मनात्मानममेयमोगदृक् परस्य पुंसः परमात्मनः कलाम् अजम् प्रयातम् जगतः शिवाय तन्महानुभावाभ्युदयोऽधिगण्यताम् इदम् हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः अवच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् अहम् पुरातीत भवे भवम् मुने दास्यास्तु कस्याश्चन वेदवादिनाम् निरूपितो बारालक एव योगिनाम् शुश्रूषणे प्रावृशि निर्विवक्षताम् ते मय्यपेताखिल चापलेर्भगे दान्ते धृतक्रीडनकेऽनुवर्तिनि चक्रु कृपाम् यद्यपि तुल्यदर्शना शुश्रूषमाणे मुनयोऽल्पभाषिणि उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्मभुन्दे तदपास्त किल्विषः एवं प्रवृत्तस्य विशुद्ध चेतसस्तद्धर्म एवात्मरुचि प्रजायते तत्रान्वहं कृष्ण कथा प्रगायतामनुग्रहेणान् मनुग्रहेणाश्रिणवम् मनोहरः ताश्रद्धया मेनुपदम् विशृण्वतः प्रियश्रवस्यङ्गमामा भवद्रुचि तस्मिंस्तदा लब्धरुचेर्महामुने प्रियश्रवस्य स्खलिता मतिर्मम ययाहमेतत् सदसत्स्वमायया पश्ये मयि ब्रह्मणि केवलकल्पितम् परेम् इत्थम् शरत्प्रावृषिकावृतौ हरे इत्थम् शरत्प्रावृषिकावृतौ हरे विशिन्वतो मेनुसमम् यशोमलम् सङ्कीर्त्यमानम् मुनिभिर्महात्मभिर्भक्ति प्रवृत्तात्मरजस्तमोपः तस्यैवम् मेनुरक्तस्य प्रसृतस्य यतेन सह शब्ददानस्य बालस्य दान्तस्यानुचरस्य च ज्ञानम् गुह्यतमम् यत्तत् साक्षात् भगवतोदितम् अन्वोचन् गमिष्यन्तः कृपया दीनवत्सलाः येनैवाहम् भगवतो वासुदेवस्य वेधसः मायानुभावमविदम् येन गच्छन्ति तत्पदम् एतत् संसूचितम् ब्रह्मस्तापत्रे चिकित्सितम् यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् आमयोयश्च भूतानाम् जायते येन सुव्रत तदेव ह्यामयम् द्रव्यम् न पुनाति चिकित्सितम् एवम् नृणाम् क्रियायोगः सर्वे संसृतिहेतव त एवात्मविनाशाय कल्पन्ते कल्पिताः परे यदत्र क्रियते कर्म भगवत्परितोषणम् ज्ञानम् यत्तदधीनम् हि भक्तियोगसमन्वितम् कुर्वाणा यत्र कर्माणि भगवच्छिक्षया सकृत् गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च नमो भगवते तुभ्यम् वासुदेवाय धीमहि प्रद्युम्नाय निरुद्धाय नमः सङ्कर्षणाय च इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् यजते यज्ञपुरुषम् स सम्यक् दर्शन पुमान् इमम् स्वनिगमम् ब्रह्मन्न वेत्य मदनुष्ठितम् अदान्मे ज्ञानमैश्वर्यम् स्वस्मिन् भावम् च केशवः त्वमप्यदभ्रश्रुतम् विभो समाप्यते येन विदाम्बुभूत्सितम् आख्यायि दुःखैर्मुहुरर्दितात्मनाम् संक्लेश निर्वाणम् शान्ति नान्यथा इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथमस्कन्धे व्यासनारद संवादे पञ्चमोऽध्यायः।